उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये आरे अस्मे च शृण्वते अग्निर्मोऽध्वादिवः प्रपुत्पतिः पृथिव्या अयम् अपाग्रेताग्निर्षि जिन्वति उभावाविन्द्राग्नि आहुवद्भ्या उभाराधसस्तहमादयध्यै उभादातारायुषाग्नयेनामुभावाजस्य सातये भुवेवाम् अयम् तेयो निर्वृत्तियो यतो जातो अरो यथाः सन्धानम् नग्न आरोहासामो वद्भयारयिम् अयमिह प्रथमो धायि धातृभिर्होतायुजिष्ठो अध्वरेष्वीढ्याः यमप्नवानो मृगवो विरुचिर्वनेषु चित्रम् विध्वम् विसेविषे अस्य प्रत्नामनुद्युतज्ञे शुक्रम् दुदुह्रे अक्रायः अयस्रहस्रसामृषिम् तनूपा अग्नेऽसि तन्वम् मे पाह्यायुर्दा अग्नेऽस्यायम् मे देहि मच्छोदा अग्नेऽसि मच्छो मे देहि अग्नेयन्मे तन्वा ऊनम् तन्मा प्रेरणा इन्धानास्त्वा शतग्निमा अद्युमन्तग्समीधीमहि वयस्वन्तो वयस्कृतग्सहस्वन्तः सहस्कृतम् अग्ने सपत्नदम्भनमदद्धासो अलाभ्यम् चित्रावसो स्वस्तिजे पारमासीया सन्त्वमग्ने सूर्यस्य वक्तसागताः समृषीणाग्स्तुतेन संप्रियेण धाम्ना समहमायुषा संवक्षसा संप्रजया सज्ञरायस्पोषेणग्मिषीया अनन्धस्ताम्भो वो भक्षीयमहस्तमहो वो भक्षीया ऊवद्यस्थोऽद्यम् वो भक्षीयरायस्पोषस्थरायस्पोषम् वो भक्षीया देवादीरमध्वमस्मिन् यो ना अस्मिन् गोष्ठेऽस्मिन् क्षयेऽस्मिन् लोके इहैवस्त्रेतो मापगाता सर्गहितासि विश्वरूप्योर्जामावीशतौ पत्येन उपत्वाग्ने दिवे दिवे दोषा आवस्तद्धिया वयम् नमो भरन्तयेमासि राजन्तमध्वराणाम् गोपामृतस्य दीदीविम् वर्धमानग्रस्वेदमे स न पितेव सूनवेग्ने सूपायनो भाव स च स्वानस्वस्तये अग्ने त्वन्नो अन्तम उतत्राता शिवो भावावदूर्ध्याः वसोरग्निर्वसुस्रवा अच्छा नक्षिद्युमत्तामग्नेरयिन्द्राः सन्त्वा आसो तिष्ठदीदिवस्सुम्नाय नूनमीमहे सखिभ्यः स नो बोधिश्रुतिह वामुष्याणो अभायतस्तमस्मात् इलये ह्यदीतये हि काम्ययेहि மயீவஃ காமதரணம் பூயாத் சோமானக்ஸ்வரணம் க்ருணுஹி ப்ரஹ்மணஸ்பதே கக்ஷீமந்தைய ஔஷிஜஃ யோ ரேவாண்யோ ஆமீ மஹாவாசுவித் புஷ்டிவர்தானஃ சனஸ்ய சக்து யஸ்துரஃ மானஸ்ருக்ஸோ அதருஷோ தூர்த்தி ப்ரணங்மத்யஸ்ய ரக்ஷாணோ ப்ரஹ்மணஸ்பதே மஹித்ரேணாமவோஸ்துத்யுக்ஷம் மித்ரஸ்ய அர்யம்ணஃ துராதர்ஷம் வருணஸ்ய நஹி தேஷா மமாஜனநாத்வாசு வாரணேஷு ஈசே ரிபுரகசர்க்ஸஹ தேஹி புத்ராஸோ அதீதே ப்ரஜீவசே மர்த்யாய ஜோதிர்யச்சம் த்யஜஸ்ரம் கதாச்சனஸ்தரீரசினேந்திரசச்சசி தாசுஷே உபோவேன்னு மாகவன் பூயைன்னு தேஜானம் தேவஸ்ய விச்சதே தத்ஸ விதுர்வரேண்யம் வத்வோ தேவஸ்ய தீமஹி தியோ யோ நஃ பிரசோதயாத் பரீதே தூணபோ ரதோஸ்மாஸ்னோது விஸ்வதாஹ ஏன ரக்ஷாசி தாசுஷாஹ சவித்தோ வாசவர்த்தய ப்ரஜயா தர்ஹனேன ச பூவத்புவஸ்வஸ்வ ப்ரஜா ப்ரஜயா பூயாஸம் சுவீரோ வீரைர் சுபோஷ போஷை நரிய ப்ரஜாம்மே பாஹி சர்க்கஸ்ய பசூவன்மே பாஹி ஆகன்ன விஸ்வவேத சமஸ்மப்யம் வசுவித்தாமம் அக்னே சம்ராட வித்யும் நமபிசாயச்சஸ்வ அயமக்னிர்க்ருஹபாதிர்கார்ஹபத்ய ப்ரஜாவான் வசுவித்தாமஹ அக்னே க்ருஹபதே வித்யும் நமபிசாயச்சஸ்வ க்ருஹாமாபிபிரமாவே பத்வமோர்ஜம் விப்ரதயேமாசி ஓர்ஜம் விப்ரத்வஸ்து மனாஸ்து மேதா க்ருஹாணை விமனசா மோதமானஹ ஏஷா மத்யேதி ப்ரவசன்னேஷு ஸோ மனசோ பஹுஃ க்ருஹானுபஹ்வயாமஹேதேனோ ஜானந்து ஜானதஃ உபாஹூதா இஹ காம உபாஹூதா அஜாவயாஹ அதோ அன்னஸ்ய கீனால உபாஹூதோ க்ருஹேஷு நஃ க்ஷேமாய வஸ்ஸாந்தேய ப்ரபத்யே சிவக் ஷக்மக் ஸய்யோஸ் ஸய்யோஹ ப்ரகாசினோ ஹவாமஹே மருதஸ்ய திசாதசஹ கரம் வேண சஜோஷசஹ யத்ராமேயதரம் யேயத் சபாயாயதிந்த்ரியே யதேனஸ்ச க்ருமா வயமிதம் ததவாயஜாமஹே ஸ்வாஹா மோஷூண இந்த்ராத்ர வித்சு தேவைரஸ்திஹிஷ்மா தேஷுஷ்மின்னவயாஹ மகஸ்சித்யஸ்ய மேனுஷோ யவ்யாஹ விஷ்மாதோ மருதோ வந்ததே கீஹி அக்ரம் கர்ம கர்ம க்ருதஃ ஸஹ வாசாமாயோ புவா தேவேப்யக் கர்ம க்ருத்வா ஸ்தம் ப்ரேதா ஸச புவஃ அவாவ்ருத நிஜம் புணனி தேருராசி நிஜம் புணா அவதேவேயத்தேவக்ருதமேனோ யாசிஷமவமத்யேயன்மத்யாக்ருதம் புருராம்னோ தேவரிஷஸ்வாஹி పూర్ణాదర్విపరాపత సుపూర్ణా పునరాపత వస్నేవ విక్రీణావహాయుషమూర్ధ్యగ్శతక్రతో దేహి మే దదామి తే నిమే దేహి నితే దధౌ నిహారం నిహారామి తే నిహారం నిహారాసి మే స్వాహా అక్షన్నమీ మదంతహ్యవ ప్రియాధూషత అస్తోషతస్వభానవో విప్రానవిష్టయామతీయో జాన్వింద్రతే హరీ సంద్రిసం పాభయం మఘవన్వందిషీమహి ప్రణూనం పూర్ణబంధురస్తుతో యా శివసౌ అనుయో జాన్వింద్రతే హరీ మనోన్బాహువామహే నారాసేనస్తోమేన పితృణాం చ మన్మభిః ఆనయేతు మనః పునఃక్రత్వే దక్షాయ జీవసే జ్యోక్షసూర్యం దృశే పునః పితరో మనో దదాతు దేవ్యో జనాః జీవం వ్రాతగ్సచేమహి వయగ్సోమౌ వ్రతే తవ మనస్తనోషు బిభ్రాతః జావంతః సచేమహి ఏషతే రుద్రభాగః సఖ స్వస్రాంబికయా తంజూషస్వ స్వాహా ఏషతే రుద్రభాగ ఆకుస్తే పశుః అవ రుద్రమధీమహ్యవ దేవం త్ర్యంబకం యథా నో వస్య సస్కరద్యథా నశ్రేయ సస్కరద్యథా నో వ్యవసాయయాత్ భేషజమాసి భేషజం గవే స్వాయ పురుషాయ భేషజం సుగం మేషాయ మేష్యై త్ర్యంబకై యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వాలుకమివ బంధనాం మృత్యోన్ముక్షీయమామృతాత్ త్ర్యంబకై యజామహే సుగంధిం పాతివేదనం ఉర్వాలుకమివ బంధనాదితోముక్షీయమామృతాః ఏతేన రుద్రావసేన పరోమూజవసోతీ అవాతకర్ణం వాపిలాకావసత్కృత్తివాసా అహిజ్ఞసన్నశివ సాంతోతీ వాజినాం వాజోవతు భక్ష అస్మాన్ రేతసిక్తమృతం బలాయ విశ్వే దేవా అభియత్సం వభూవస్తన్మాభినోత ప్రజయా ధనేన వాజ్యహం వాజీనస్యోపాభూత ఉపాభూతస్య భక్షయామి వాజే వాజీ భూయాసం పవిత్రా ప్రసూతా దేవ్య ఆపావందంతు తే తనూం దీర్ఘాయుత్వాయ వర్చసే కశ్యపస్య త్రయాయుషం జమదగ్నేత్రయాయుషం యద్దేవానాం త్రయాయుషం తన్మే అస్తు త్రయాయుషం యేన ధాతా బృహస్పతేరింద్రస్య చాయుషే వావత్ యేన దేవపామి బ్రహ్మాణా జీవాత మే జీవనాయ దీర్ఘాయుత్వాయ బలాయ వచ్చసే సుప్రజాస్వాయ చ సా అథో జీవశరదశతం ఇది తృతీయోధ్యాయః.
अथ
चतुर्थोऽध्यायः। एदमागन्मदेवयजानम् पृथिव्या यत्र देवासो अजोषन्त विश्वे ऋक्सामाभ्यामग्सन्तरम् तो यजद्भिरायस्पोषेण समिषामादेवा इमा आपः समो मे सन्तु देवी रोषधेत्रायस्वस्वधीते मैनग्सीः आपो अस्मान् मातरः सुन्धयन्तु घृतेन नो घृतपः पुनन्तु विश्वग्गहिरिप्रम् प्रवहन्ति देवी रुदिदाभ्यस्तु चिरापूतये एमि दीक्षा तपसोऽस्तनुरासिताम् त्वा शिवाग्शग्माम् परिदधे भद्रम् वर्णम् पुष्यन् महीनाम् पयोऽसिवच्चोदासिवच्चो मे देहि वृत्रस्य कनीन कासि चक्षुर्दासि चक्षुन्मे देहि यत्पतिर्म् मा पुनातु वाक्पतिर्म् मा पुनातु देवो मा पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः तदस्य ते पवित्रपते पवित्रभूतस्य यत्कामः पुने तच्छकेयम् आहो देवास ईमहे वामम् प्रयत्यध्वरे आवो देवास आशिषो यज्ञियासो हवामहे स्वाहा यज्ञम् वनसस्वाहोरोरन्तरिक्षात् स्वाहाद्या वा पृथिवीर्भ्यागस्वाहा वा तादारभे आपूत्ये प्रयुजेऽग्नये स्वाहा मेधायै मनसेऽग्नये स्वाहा दीक्षायै तपसेऽग्नये स्वाहा सरस्वत्यै पूष्णेऽग्नये स्वाहा आपो देवी यद्बृहदीयर्विश्वसनम्भुवोद्यावा पृथिवी कुर्वन्तरिक्षा बृहस्पताये हविषा विधेम स्वाहा विश्वो देवस्य नेतुर्मत्तो उरीतसख्यम् विश्वरायै शुध्यति द्युम्नम् प्रेणीत पुष्यसे स्वाहा ऋक्सामयो शिल्पे अस्तस्ते वामारभे देवापातम् आस्य यज्ञस्योदृजाः शर्मा आसि शर्म मे यच्छ नमस्ते अस्तु मामाहिग्सीः ूर्गस्याङ्गिरस्योऽर्णम् व्रधागूर्जम् मे यच्छा सोमस्य नीविरासि विष्णोः शर्मासि शर्म यजमानस्य इन्द्रस्य योनिरसि सुसस्या कृषीयस्कृधि उच्छाय श्रवणस्पद भूद्भो मा बाह्यग्रहासः आस्य यज्ञस्योदृजाः व्रतम् कृणुतौ व्रतम् कृणुतौ व्रतम् कृणुता अग्निर्ब्रह्माग्निर्यज्ञो वनस्पतिर्यज्ञियाः दैवीन्द्रियम् मनामहे सुमृळेकामभिष्टाये वच्चोदाम् विश्वधायसज्ञसुतीर्थानो असद्वसे हे देवा मनो जाता मनो युजो दक्षक्रतवः तेनो वन्तु तेनः पान्तु तेभ्यः स्वाहा पात्राः पीता भावत यूयमापो अस्माकमन्तरुदरे सुसेवाः ता अस्मभ्यामयक्ष्माणमीवागसस्वदन्तु देवी
अमृतार्तावृथाः
इयं ते यज्ञिया तनूरपोमुञ्चामिनः प्रजाम् अग्होमुच स्वाहा कृता पृथिवीमावीशत पृथिव्या सम्भवा अग्ने त्वग्सुजा गृहि वयग्सुमन्दिषीमहि रक्षाणो अप्रयुच्छन् प्रबुधे नः पुनस्कृधि पुनर्मनः पुनरायोन्मागात्
पुनश्चक्षुः पुनश्रोत्रम्
मागात् पुनः प्राणः पुनरात्मा मागात्वैश्वा नरो अदब्धस्तनो वा अग्निर्मा पातु दुरितादवद्यात्
त्वमग्नेरतपासि
देवामत्येष्वा
त्वयि
यज्ञेष्वीड्याः राष्ट्रे यत्सोमा भूयो भरा देवो नः सविता वसो अद्दाता वस्वजात् येषा ते शुक्रतनुरेतद्वच्छस्तया सम्भवभ्राजम् गच्छा जोराजिघृता मनसा जुष्टा विष्णावे तस्यास्ते सत्यसा वसः प्रसरे तनुयन्त्रमासीय स्वाहा चन्द्रमासि शुक्रमस्य मृतामसि वैश्वदेवमासि सिदासि मनासि धीरासि दक्षिणासि क्षत्रियासि यज्ञिजास्य दीतिरस्युभयतस्येष्णी तानः शुक्राची सुप्रतीची भवा मित्रस्त्वा परिबध्नीताम् पूषाद्वानस्त्वाक्विन्द्रायाध्यक्षाय अनत्वा मातामन्यतामनो पिता नु भ्राता
सदग्भ्यो नु सखा
सयोच्छः सा देवि देवमच्छेहीन्द्राय सोमम् रुद्रस्त्वावर्तयतु स्वस्ति सोमा सखा पुनरेहि वस्यस्य दीतिरस्यादित्यासि रुद्रासि चन्द्रासि बृहस्पतिष्ट्वा सुम्नेरम् नातु रुद्रो वसुभिराचके अदित्यास्त्वा मूर्धन्नादिघन्विजे भजजने पृथिव्याः किलायास्त्वदमासि घृतवत्स्वाहा अस्मे रामस्मास्मे ते बन्धुः वेरायो अस्मे रायाः मा वयग्रायस्पोषेण वियोष्मदोतो रायाः समख्ये देव्या धिया सन्दक्षिणयो रुचक्षसा मामायुप्रमोषीर्मो अहम् तव वीरान् वीरेय तव देवि सन्दृशि एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेशते त्रेष्टु भो
भाग इति मे सोमाय ब्रूतात्
एष ते जागतो भाग इति मे सोमाय ब्रूताच्छन्दो मानानाग्रसाम्राज्यम् गच्छतादिति मे सोमाय ब्रूतात् आस्माकोऽसि शुक्रस्ते ग्रह्याः विचितस्त्वा विचिन्वन्तु अभित्यं देवग्सविता रामोऽन्यो अक्कविक्रातुमच्चामि सत्यसामग्रत्नधामभिप्रियं मतिं कविम् ऊर्ध्वायस्यामतिर्भा अतिद्युतत्सवीमणिहिरण्यपाणिरमिमीतशुक्रतुः कृपा स्वाहा प्रजाभ्यस्त्वा प्रजास्त्वानुप्राणन्तु प्रजास्त्वमानुप्राणीः चन्द्रं त्वा चन्द्रेण क्रीणामि शुक्रज्ञ शुक्रेणामृतमृतेन सग्मे ते गोरस्मे ते चन्द्राणि तपासस्तनोराशि प्रजापातेर्वर्णाः परमेण पशुना क्रियसे सहस्रपोषं कूषेयम् मित्रो न ये हि सुमित्रधरिन्द्रस्योरुमामी सदक्षीणम् उसन्नुसन्तग्गस्यो नस्योनम् स्वानभ्राजाङ्घ्रारे बम्भारे हस्तसुहस्तकृशानो ये ते वस्वभक्रयाणास्तान् रक्षध्वं मामोदभन् परीवाग्ने दुश्चारिता त्वाधस्वामासुचारिते भज उदायुषा स्वायुषोदस्थामृताम् अनु प्रतिपन्थामपद्महिस्वस्तिगामानेहसम् येन विश्वाः परिद्विषो वृणक्ति विन्दते वसु अदित्यास्त्वकस्य दित्यै सदासीदा अस्तभ्रात्या मृषभो अन्तरिक्षममीमीतपरिमाणम् पृथिव्याः आसीदद्विश्वाभुवानानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ेषुव्यन्तरिक्षं तता न राजमर्वत्सुपया उश्रियासु हृत्सुक्रतुं वरो नो विक्ष्वग्निं दिवि सूर्यमदधात् सोममद्रौः सूर्यस्य चक्षुरारोहाग्ने रक्ष्णक्रमीणताम् यत्रैतासेभिरीयसे भ्राजमानो विपश्चिताः उश्रायेतम् भूर्वाहौ युज्येथा मनश्रु अवीरहणौ ब्रह्मचोदनौ स्वस्ति यजमानस्य गृहान् गच्छतम् भद्रो मेषि प्रत्यवस्वभुवस्पते विश्वान्यभिधामानि मा त्वा परिपरिणो विदन्मा त्वा परिपन्थिनो विदन्मा त्वा वृकाभायवो विदन् येनो भूत्वा परापत यजमानस्य गृहान् गच्छतन्नौ सर्गस्कृतम् नमो मित्रस्य वरुणस्य चक्षासे महो देवाय तदृतग्सपर्यता दूरे दिशे देवजाताय केतवे दिवस्पुत्राय सूर्याय सग्सता वरुणस्योत्तम्भानमसि वरुणस्य स्कम्भसज्जनीस्थः वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनीमासीला या ते धामानि हविषा यजन्ति ता ते विश्वाः परिभूरस्तु यज्ञम् गयस्थानः प्रतरणः सुवीरो वीरः प्रजरासो मधुर्याम् ॐ चतुर्थोऽध्यायः अथ पञ्चमोऽध्यायः अग्नेस्तनुराशि विष्णावे त्वा सोमस्य तनुराशि विष्णावे त्वा अतीचेरादिथ्यमासि विष्णावे त्वा स्येनाय त्वा सोमभृते विष्णावे त्वाग्नये त्वारायस्पोषदे विष्णावे त्वा अग्नेऽध्यनित्रामसि वृषाणौ स्थः पूर्वस्यायुरासि पुरुरवा असि गायत्रेण त्वाच्छन्दसामन्थामित्रैष्टोभेण त्वाच्छन्दसामन्थामि जागतेन त्वाच्छन्दसामन्थामि भवातन्नः समानसौ सचेतसा अरेपसौ मा यज्ञगृहिग्रशिष्टम् मा यज्ञपातिम् जातवेजसौ शिवो भावतमध्यनाः अग्ना अग्निश्चारति प्रविष्टऋषीणाम् पुत्रो अभिषस्ति पावा तनस्यो नः सुयजाय देहदेवेभ्यो हव्यग्सदमप्रायुच्छन् स्वाहा आपादये त्वा गृह्णामि परीपतये त्वा गृह्णामि तनूनत्रे सा क्वलाय शक्मन्नो ज्येष्ठाय अनादृष्टमस्य नादृश्यम् देवानामोजाः अनाभिषस्त्यभिषस्ति पानभिषस्तेऽन्यम् अनञ्जसा सत्यमुपागेषग्सुभिते माधाः अग्नेव्रतपास्ते व्रतपाः यातव तनूर्यज्ञसामयियाममातनूरेषा सा त्वयि सहनौ व्रतपते व्रतान्यनु मे दीक्षाम् दीक्षापाजन्मन्यतामनुतपस्तपस्त्वदिः अग्नेसुरग्नेसृष्टे देवसोमाप्यायतामिन्द्रायैकधनविदे आदुभ्यमिन्द्रप्यायतामात्त्वमिन्द्रायप्यायस्मा आप्यायजास्मान् सखीन् संज्ञा मेधया स्वस्ति ते देवसोमसुत्यामुदृचामसीया एष्टाराय प्रेषे भगाय ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्यै जाते अग्नेयश्रया तनोर्वर्षिष्ठागह्वरेष्ठा उग्रं वचो अपावधीयत्तेषं वचो अपावधीयत् स्वाहा जाते अग्ने रजस्रया तनोर्वर्षिष्ठागह्वरेष्ठा उग्रं वचो अपावधीयत्तेषं वचो अपावधीयत् स्वाहा यादे अग्ने हरीशया तनोर्वर्षिष्ठागह्वरेष्ठा उग्रं वचो अपावधीयत्तेषं वचो अपावधीयत् स्वाहा तप्ताय नीमेषि वित्ताय नीमेषि अवातान् माव्यथितमवातान् मानाथितम् विदेरग्नेर्नभो नामाग्ने अङ्गिरायूनानाम् नेहि योऽस्याम् पृथिव्यामसि यत्तेनादृष्टन्नाम यज्ञियम् तेन त्वा दधे विदेरग्नेर्नभो नामाग्ने अङ्गिरायूनानाम् नेहि यो द्वितीयस्याम् पृथिव्यामसि यत्तेनादृष्टन्नाम यज्ञियम् तेन त्वा दधे विद्येरग्नेर्न भो नामाग्ने अङ्गिरायुनानाम्नेहि यस्तदीयस्याम् पृथिव्यामसि यत्तेना दृष्टम् नाम
यज्ञन्तेन त्वादधे
अनुत्पादेव वीदये शिग्रह्यासि सपत्नसाहि देवेभ्यः कल्पस्व शिग्रह्यासि सपत्नसाहि
देवेभ्यः
शुम्भस्व शिग्रह्यासि सपत्नसाहि देवेभ्यः शुम्भस्व इन्द्रघोषस्त्वा वसुभिः पुरस्तात्त्वा तु प्रचेतास्ता रुद्रेः पश्चात्त्वातु मनोजवास्त्वा पितृभिः दक्षिणतः पातु विश्वकर्मात्त्वा
वित्तेरुत्तरतः पातु
इदमहम् तप्तम् वा त्वा व्यर्था यज्ञान् निःसृजामि शिग्रह्यासि स्वाहा शिग्रह्यस्यादित्यवनि स्वाहा शिग्रह्यासि ब्रह्मवनि क्षत्रवनि स्वाहा शिग्रह्यासि सुप्रजावनीरायस्पोषवनि स्वाहा शिग्रह्यस्यावागदेवान्यजमानाय स्वाहा
भूतेभ्य स्वा
ध्रुवोऽसि पृथिवीम् दृग्ग्रह ध्रुवक्षितस्यन्तरिक्षम् दृग्ग्रह अच्युतक्षितासि दिवम् दृग्ग्रहाग्ने भस्मास्यग्ने पुरीशमसि युञ्जते मना उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चिताः विहोत्रादधेवयुना विलेकयिन्मही देवस्य सवितुः परिष्टुभिः इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदम् समोढमस्य पाग्सुरे स्वाहा इदा आवतीते सुमतीः भूतग्सूयवसिनी मना वेदसस्य व्यस्कब्धारोदसी विष्णयेते दाधत्ता पृथिवीमभितो मयूखैः स्वाहा देवश्रुतौ देवेष्वाभोषतम् प्राची प्रेतामद्भरम् कल्पयन्ति भूवर्ध्वै यज्ञन्नायतम् माजुः परतम् सङ्गोष्ठमावादतम् देवी दुर्ये आयुर्मानिर्वादिष्टम्
प्रजाम्
मानिर्वादिष्टम् अत्र रमे खाम् भष्मन् पृथिव्याः विष्णोर्नुकम् वीर्याणि प्रवोचय्यः पार्थिवानि विममे रजाग्नसि यो अस्तभायदुत्तरग् सधस्थम् विचक्रमाणस्त्रेधोरुगायो विष्णवे त्वा दिवो वा विष्णवुत वा पृथिव्यामहो वा विष्णवुरोरन्तरिक्षात् उभाहिरस्ता वसूना प्रणस्वा प्रयच्छ दक्षिणादोदसंव्याद्विष्णवे त्वा प्रतद्विष्णस्तव देवीर्येण मृगो न भीमः कूचरो गीरिष्ठाः यस्योरुषत्रिषु विक्रमानेष्वधिक्षियन्ति भुवानानि विश्वा विष्णोरराटमसि विष्णोस्नप्ते अस्थो विष्णोस्यूरसि विष्णोद्ध्रुवोऽसि वैष्णवमासि विष्णवे त्वा देवस्य त्वा सवितुः प्रसर्वेऽश्विनो अद्बाहुभ्याम्
पूष्णोहस्ताभ्याम्
आदरेनार्यसीदमहग्रक्षसोऽग्रीवा अपि कृन्तामि बृहन्नासि बृहद्रावा बृहतीमिन्द्राय वाचम् वदा ప్రక్షోహణం వలగహనం వైష్ణవీయం ఇదమహంతం వాలగముద్వాపామి యన్నో నిష్ఠ్యోయమమాత్యోని చఖాన ఇదమహంతం వాలగముద్వాపామి
యన్నః సమానోయమసమానోని
చఖాన ఇదమహంతం వాలగముద్వాపామి యన్నః సబంధుర్యమసబంధుర్ని చఖాన ఇదమహంతం బాలగముద్వాపామి యన్నస్త జాతోయమస జాతోని చఖానోకృత్యాం
కీరామి
స్వరాలాసి సపత్నః సత్రరాలస్య భిమాతిః జనరాలాసి రక్షోః సర్వరాలస్య మిత్రః రక్షోహణో వలగహన ప్రోక్షామి వైష్ణవాన్ రక్షోహణో వలగహనో వానయామి వైష్ణవాన్ రక్షోహణో వలగహనో వస్త్రిణామి వైష్ణవాన్ రక్షోహణో వలగహన ఉపదధామి వైష్ణవీ రక్షోహణో వలగహనౌ పర్యోహామి వైష్ణవీ వైష్ణవమాసి వైష్ణవాస్థా దేవస్యత్తా సవితుః ప్రసవేష్మినో బాహుభ్యాం కూష్ణో
హస్తాభ్యాం
ఆదేనార్యసీదమహగ్రక్షసోగ్రీవా అపీ కృంతామి యవోసి యవయాస్మద్వేషో యవయానాతీః దివే త్వాంతరిక్షాయత్తా పృథివ్యై త్వా సుంధంతాన్ లోకాప్యదృషదానామసి బుద్ధివగ్గస్తభానాంతరిక్షం ప్రణదృగ్గహస్త పృథివ్యాం యుదానస్తా మారుతో మీనోతు మిత్రావరుణో ధృవేణ ధన్వానా బ్రహ్మవనిత్వా క్షత్రవనీరాయస్పోషవని పర్యోహామి బ్రహ్మదృగ్గహ క్షత్రం దృగ్గహాయదృగ్గహ ప్రజాం దృగ్గహ ధ్రువాసి ధ్రువోస్మిన్యజమాన ఆయతనే భూయాత్ ఘృతేన ద్యావా పృథివీ పూర్యే థామింద్రస్య ఛదిరాసి విశ్వజనస్య ఛాయా పరిత్వా గిర్వణో గిర ఇమా భావంతు విశ్వతాః వృద్ధా యువన వృద్ధా యోజుష్టా భవంతు జుష్టాయః ఇంద్రస్య స్యూరసీంద్రస్య ధ్రువోసి ఐంద్రమాసి వైశ్వదేవమాసి.